गुरुब्रह्म गुरुविष्णुर्देवो महेश्वरङ्गुरु साक्षात् पर्ब्रह्म तस्मै गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र असमवायिकारणम् इति विषयः तस्मिन् तत्र एकविध असमवायिकारणम् अस्माभिः दृष्टम् अस्ति इदानीं तत्र द्वितीयविध असमवायिकारणम् इति अस्माकं विषयः तस्य उदाहरणम् एतावत् वयं न पठितवन्तः किन्तु अग्रे तत्र अस्य एव तत्र सम्यक् रीत्या विवरणं सर्वं भवति तत्र स्वरूपमहोदयस्य करपत्रस्य पठनेन तर्हि शीघ्रतया पुनःस्मरणं कुर्मः तर्हि तत्र नाम तत्र समवायिकारणम् असमवायिकारणम् अपि तेषां तत्र न्यायशास्त्रशैल्या तत्र तेषां तत्र विवरणं तत्र वाक्यं कथं भवति इति तर्हि तत्र प्रथमतया तत्र अस्तु तर्हि तत्र उषा भगिनी तत्र कोऽपि पदार्थः अपि तस्य समवायिकारणम् उदाहरणम् एकं वदतु भगिनि
कपाल समवायिकारणं
समवायिकारणं
समवायिकारणं घटः अपि च घटपरिमाणम्
अस्तु तत्र कार्यं किं
घटपरिमाणम् इति कार्यं घटः इति समवायिकारणं घट इति अधिकरणम् अस्ति घटः एव अधिकरणं
घटः एव अधिकरणं समीचीनं
घटः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन घटपरिमाणम् इति कार्यं जनयति
उत्तमं भगिनि धन्यवादः उत्तमं हा समीचीनम् अस्तु धन्यवादः अस्तु इदानीम् अग्रे शोभा भगिनी इदानीं तत्र प्रथमविध असमवायिकारणस्य एकम् उदाहरणम्
आं महोदय असमवायिकारणम् इत्युक्ते तत्र असमवायिकारणे संयोगः इति गुणः भवति तत्र घटपरिमाणम् अपि कपालः इति स्वीकर्तुं शक्नुमः तत्र तादात्म्यसम्बन्धः नास्ति तदेव तत्र कार्यकारणभावः अस्ति किन्तु तादात्म्यसम्बन्धः नास्ति अपि च सामानाधिकरणं नास्ति असमवायिकारणे
अस्तु एतावत् प्रथमविध असमवायिकारणं भगिनि नाम तत्र अस्तु तर्हि तत्र एतत् कुर्मः तर्हि घटः परिमाणं घटपरिमाणं घटे इति अस्ति अस्तु इदानीं तत्र घटः अपि घटः कार्यं भवति चेत् तत्र समवायिकरणं किं भवति घटस्य समवायिकरणं
घटस्य समवायिकारणं तत्र परिमाणमेव भवति
न घटस्य समवायिकारणं
घटस्य समवायि अस्तु समवायिकारणं
भगिनि तत्र अत्र अस्मिन् उदाहरणे कार्यं किं कारणं किं
घटः कार्यं
नाम तत्र
अस्तु इदानीम् उक्तं खलु परिणामं परिमाणम् इति कार्यम् इति
किन्तु तत् समीचीनम् अस्ति वा न वा तत्र परिमाणम् इति कार्यं न तु कारणम् अथवा किम्
परिमाणं घटे अस्ति अपि च
नाम परिमाणेन घटः भवति वा अथवा घटेन घटस्य अनन्तरं परिमाणं भवति वा
परिमाणेन घटः भवति
कथं भगिनि
घटस्य अनन्तरं परिमाणम् इति
एव अस्ति खलु नाम परिमाणस्य स्थले रूपम् इति स्वीकरोतु
रूपं नास्ति अस्तु
रूपम् इति स्वीकरोतु घटे नाम तत्र घटं विना केवलं रूपं घटरूपं भवितुम् अर्हति वा नाम अत्र परिमाणमिति तत्र सामान्यपरिमाणं नास्ति घटपरिमाणं घटे विद्यमानं परिमाणम्
अस्तु घटे विद्यमानं परिमाणम्
अपि घटः कारणं किं कार्यं
तत्र पठितवती महोदय तथापि अस्तु परिमाणस्य
नाम तत्र सरलरीत्या चिन्तयामः नाम तत्र घटपरिमाणं विना घटः भवितुम् अर्हति अथवा घटं विना घटपरिमाणं भवितुम् अर्हति तत्र किम्
घटं विना घटपरिमाणं भवितुं नार्हति
नार्हति खलु तर्हि तर्हि तत्र कार्यं किं कारणं किं यदि तयोः मध्ये कार्यकारणभावः स्यात्
घटम् एव कार्यं भवेत् तत्र
नाम यत् प्रथमं नाम तत्र कपालः घटः तत्र
कपाल घटः कार्यं कपालः कारणं भवति तत्र
समीचीनं यतोहि घटं विना कपालः भवितुम् अर्हति खलु
आमां घटं विना कपालः भवितुम् अर्हति कपालं विना घटं न भवति इदानीं तत्र घटः आम् अपि परिमाणम्
अपि घटः
घटं विना परिमाणं न भवितुम् अर्हति
तर्हि तत्र कारणं किं
तत्र तर्हि तत्र कारणं तु घटः परिमाणस्य कृते
खलु
आं परिमाणमेव कार्यं भवति यतोहि अस्तु घटं विना परिमाणम् अहं विपरीतरीत्या अस्तु
अतः एव तत्र तर्हि तत्र साधारणपरिमाणं नास्ति घटपरिमाणं घटे विद्यमानं परिमाणं तर्हि तत्र इदानीं समीचीनं खलु
इदानीं आं महोदय इत्युक्ते तत्र घटस्य परिमाणस्य सामानाधिकरणं भवति
नाम तत्र घटपरिमाणस्य तत्र घटपरिमाणस्य तर्हि तत्र समवायिकारणं किं भवति
घटपरिमाणस्य समवायिकारणं किं तत्र
अथवा घटः कारणं खलु घटपरिमाणं प्रति घटः कारणं खलु
सत्यं
तर्हि कीदृशं कारणं तत्र समवायिकारणं वा असमवायिकारणं वा
समवायिकारणमेव भवति
समवायिकारणं किमर्थम्
यतोहि समवायिकारणम् इत्युक्ते तत्र कार्यकारणभावः अस्ति समानाधिकरणम् अस्ति अपि च समवायसम्बन्धः अस्ति तयोः
अपि केवल तत्र समीचीनं भगिनि तर्हि अस्तु तर्हि तत्र अत्र कार्यम् अस्ति परिमाणं खलु
आम्
कार्यम् अस्ति क्षणकं तत्र कारणमस्ति
कारणमस्ति घटः
घटः अधिकरणमस्ति
अधिकरणमस्ति घटः एव
घटः एव अस्तु इदानीं परिमाणं घटे केन सम्बन्धेन तिष्ठति
अस्तु परिमाणं घटे समवायसम्बन्धेन तिष्ठति घटः घटे गुणः क्षम्यतां गुणः अस्ति
घटः घटः अधिकरणे
घटाधिकरणे तादात्म्यसम्बन्धेन तिष्ठति
उत्तमं तर्हि यत्र
घटः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन परिमाणं जनयति इति तत्र परिमाणं कार्यं भवति घटः कारणं समवायिकारणं भवति
उत्तमं भगिनि तर्हि घटः एव समवायिकारणं
कारणम्
अस्तु परिमाणस्य समवायिकारणम्
आम्
इति अस्ति समीचीनं तर्हि अत्र एतत् उदाहरणमस्ति समवायिकारणस्य तर्हि तत्र समवायिकारणं कारणस्य उदाहरणमस्ति अस्तु समीचीनं नूतनतया धन्यवादः भगिनि नूतनतया तत्र विमला भगिनी नमस्कारः शुभदा भगिनी नमस्कारः
महोदय शृणोमि
अस्तु भगिनि अस्तु भगिनि
तत्र असमवायिकारणं सामान्यकारणम् इत्युक्ते घटकपाल तत्र कपालसंयोगः इति
सत्यं 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 तदेव अस्ति किन्तु समीचीनं अस्तु किन्तु अन्य अन्य कोऽपि तस्य विवरणं कुर्यात्
अस्तु
किन्तु तदेव अस्ति भगिनि हा अस्तु अग्रे इदानीं तत्र नीता भगिनी अग्रे तर्हि तत्र घटः कपालः तत्र घटस्य समवायिकारणं किं भवति
इदानीं यदि कपालः इति अधिकरणेन स्वीकुर्मः चेत् तत्र कपालः घटः इति कार्यं भवति घटः कार्यं भवति कपालः अधिकरणम् इत्युक्ते कपालः तत्र कार्यस्य घट इति कार्यस्य कपालः इति समवायिकारणम्
तर्हि वाक्यं तत्र किं भवति नाम कपालः यथा तत्र घटः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा इति
तत्र कपाल कपालसंयोगः
न न अत्र संयोगः नास्ति केवलं कपालः एव कपालः एव
कपाल स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटः इति कार्यं जनयति
समवायसम्बन्धेन
समवायसम्बन्धेन घटः इति कार्यं जनयति
जनयति उत्तमं भगिनि हा तर्हि तत्र
अतः तत्र कपाल इति असमवायिकारणं
न समवायिकारणं समवायिकारणं
कपाल इति समवायि कपाल स्वस्मिन् तादात्म्येन स्थित्वा घट इति कार्यं जनयति कपाल तत्र समवायिसम्बन्ध इत्युक्ते तत्र यत् कारणं यदि स्वीकुर्मः चेत् तत्र कपालः समवायिकारणं भवति एवम्
अस्तु समीचीनं भगिनि हा अस्तु उत्तमम् अस्तु इदानीं तत्र योगेन्द्रमहोदय इदानीं तत्र यदि तत्र असमवायिकारणम् अस्ति चेत् तत्र असमवायिकारणस्य उदाहरणं वदति वा महोदय
घटः अस्ति घटस्य कार्यमस्ति परिमा तदा
असमवायिकारणम् असमवायिकारणं तत्र कार्यं किं कारणं किम् इति उक्त्वा तत्र असमवायिकारणस्य उदाहरणम्
कपालयोः कपालयोः परिमाणं घटस्य परिमाण परिमाणमस्ति तस्य असमवायिकारणं भवति इति प्रायः
किन्तु तस्य सम्पूर्णरीत्या वयं न पठितवन्तः यत् यस्य विवरणं वयं पठितवन्तः नाम तत् नूतनविद असमवायिकारणं भवति महोदय अतः तत्र तस्य तद् इदानीं मास्तु सः एव विषयः भवति अग्रे अतः पुरातन उदाहरणं पुरातनम् उदाहरणं किमपि वदतु महोदय यदि स्मरति अन्य कोऽपि
पुरातन उदाहरणमस्ति कपालसंयोगः इति असमवायिकारणमस्ति घटः इति कारण कार्यमस्ति तदा
हा उत्तमं महोदय अस्तु समीचीनं हा अस्तु तर्हि घटः इति कारणं
घटः अधिकरणं घटः इति कार्यं
घटः इति कार्यं समीचीनं हा इति कार्यं
घटः इति अधिकरणमपि
घटः न तत्र
अधिकरणम् इति एव
अधिकरणं किं भवति तत्र कारणं
कपालः कपालः अधिकरणं
कपालः अधिकरणं समीचीनं महोदय कपालः इति अधिकरणं हा अपि कपालसंयोगः
संयोगः इति असमवायिकारणं घटस्य
घटस्य उत्तमं महोदय हा अस्तु इदानीं तत्र यथा पूर्वम् उक्तं महोदय तत्र तर्हि कपालसंयोगः इति कारणं घट इति कार्यं प्रति अधिकरणमस्ति कपालः यथा तत्र वाक्यम् आसीत् महोदय नाम कपालः स्वस्मिन् तादात्म्यसम्बन्धे स्थित्वा घटं जनयति इति तादृशं वाक्यम् अत्र वदतु महोदय कपालसंयोगः
युवसंयोगः समवायिकारणेन कपाले तिष्ठति
स्थित्वा
समवायिसम्बन्धेन घटं जनयति
समवायसम्बन्धेन घटं जनयति उत्तमं महोदय उत्तमं अस्तु धन्यवादः उत्तममस्ति इदानीम् अग्रे तर्हि तत्र नरसिंहगिरि महोदय नमस्कारः अन्यत् उदाहरणं महोदय तत्र असमवायिकारणस्य
नमस्कारः असमवायिकारणस्य अन्यत् उदाहरणं तन्तुसंयोगः तन्तुसंयोगः समवायकारणेन तन्तो मध्ये स्थित्वा समवायेन पटं जनयति
हा उत्तमं महोदय तर्हि संयोगः तन्तुः इति अधिकरणं स्थित्वा पटं पटः इति कार्यं पटम् इति कार्यं जनयति समीचीनं महोदय तर्हि इदानीम् असमवायिकारणम् इति यदि वदामः हा तर्हि तत्र अस्तु इदानीं तत्र आरम्भतया गच्छामः तत्र चन्द्रमती भगिनी तर्हि अग्रे तर्हि यदि वयम् असमवायिकारणम् इति वदामः तर्हि तत्र सर्वदा कारणकारणभाव कार्यकारणभावः अस्ति चेत् तत्र कार्यमस्ति कारणमस्ति अधिकरणमस्ति किन्तु यत्र असमवायिकारणम् इति चिन्तयामः तत्र सम्बन्धः केन सम्बन्धेः सम्बन्धेन कुत्र समवायसम्बन्धः
तन्तुसंयोगः इति कारणं समवायसम्बन्धेन तन्तौ स्थित्वा तन्तुषु स्थित्वा पटः इति कार्यं समवायसम्बन्धेन रचयति
जनयति उत्तमं भगिनि हा तर्हि तत्र भेदः कः इत्युक्ते अत्र किं भवति अत्र
गुणः
अत्र समवायसम्बन्धः इति भवति अत्र खलु अत्र यथा पूर्वमस्ति तथा एव समवायसम्बन्धः किन्तु इदानीं खलु भेदः तयोः मध्ये कः भेदः इत्युक्ते अत्र समवायसम्बन्धः अत्रापि अत्र तादात्म्यसम्बन्धः अत्र समवायसम्बन्धः इति भवति अपि अधिकरणं किं भवति असमवायिकारणस्थले
तन्तुः भवति अधिक
किन्तु नाम तन्तुः किं भवति पटं पटस्य कृते तन्तुः अस्ति कीदृशकारणं तन्तुः
कपालः भवति
न पटं प्रति तन्तुः कीदृशं कारणम् अस्ति
समवायिकारणं
हा समवायिकारणं हा तर्हि तत्र समवायिकारणम् इति अधिकरणं भवति तर्हि तत्र उदाहरणं यदि वदामः घटम् इति घटः इति कार्यं
खडः इति
कार्यम् इति चिन्तयामः तर्हि तत्र समवायिकारणं किम् अस्ति
तन्तुसंयोगः
घटः घटः इति कार्यं
खडः
कपालः तर्हि एकनिमिषः तत्र असमवायि इति तर्हि घटः इति कार्यमस्ति चेत् कपालः समवायिकारणम् असमवायिकारणं किम् अस्ति घटस्य कृते
कपालसंयोगः
कपालसंयोगः उत्तमं भगिनि हा तथैव यदि वयं तत्र पटः इति स्थापयामः तर्हि तत्र तन्तुः तन्तुसंयोगः इति भवति उत्तमं भगिनि हा इति अस्ति तर्हि हा इति अस्ति समीचीनं हा इदानीं तत्र धन्यवादः
महोदय एकं प्रश्नं पृच्छामि
वदतु भगिनि
तत्र असमवायिकारणम् इत्यत्र इति शीर्षिकायाः आरम्भे एव समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं तत् असमवायिकारणम् इति उक्तं.
सत्यं सत्यं.
तत्र प्रथम उदाहरणे यदा यदि तत्र इत्युक्ते तत्र गुणः भवेत् अथवा क्रिया भवेत्, क्रिया कार्यं प्रति कारणं भवेत् इति. तत्र यत्र यत्रापि समवायिकारणं भवति तत्र तत्र समवायिकारणे समवायसम्बन्धेन यः गुणः तत्र परिमाणम् इति गुणः अस्ति. प्रथमे उदाहरणे घटः परिमाणं घटः इति समवायिकारणे समवायसम्बन्धेन समवायिकारणम् अस्ति तत्र घटः. तस्मिन् कारणे समवायसम्बन्धेन यः गुणः परिमाणम् अस्ति कार्यं प्रति कारणं. गुणः कार्यं प्रति कारणं तत्र परिमाणम् इति एव कार्यं. तत्र कार्यं प्रति कारणं घटः एव कारणं.
भगिनि तत्र प्रायश यदि क्लेशजनकमस्ति चेत् एतत् उदाहरणं त्यजतु भगिनि. नाम मास्तु यदि तत्र नाम तत्र एतत् उदाहरणं किम् अस्ति, यत्र यत्र गुणः भवति गुणस्य आशयः सर्वदा द्रव्यं खलु. द्रव्यमेव आश्रयः एव तत्र समवायिकारणं भवति. नाम तत्र क्रिया अस्ति, हस्तयोः क्रिया भवति, तर्हि क्रिया अस्ति हस्ते, हस्तः एव तत्र समवायिकारणम् इति नाम यत्र यत्र समवायसम्बन्धः नाम वयं जानीमः क्रिया क्रियावतोः तत्र
गुणगुणिनोः
गुणगुणिनोः अवयव अवयविनोः अवयव अवयविनोः उदाहरणम्, अत्र गुणगुणिनोः उदाहरणं, हस्तसंयोगः तत्रापि तत्र क्रियाक्रियावतोः उदाहरणम्. किन्तु अत्र वामभागे कारणं दक्षिणभागे कार्यम्. यत्र परिमाणं कारणं भवति तद्भिन्नं भवति, तदा परिमाणम् अत्र भवेत्. नाम असमवायिकारणे असमवायिकारणम् इति यदि वयं चिन्तयामः तर्हि एतावत् परिमाणं कुत्र अस्ति, अत्र अस्ति, कार्यं स्थले अस्ति खलु,
कार्यं स्थले अस्ति.
यत्र असमवायिकारणम् इति चिन्तयामः तदा कारणस्थले गुणः भवेत् अथवा क्रिया भवेत्.
अस्तु,
अतः एव तत्र भेदः कृतः. नाम एतावत् समवायिकरणम्, इदानीम् असमवायिकरणम्. अत्र यदि तत्र क्रिया अथवा गुणः भवति अपि अधिकरणं भवति समवायिकारणं, तदा कार्यस्य एतत् कारणम् असमवायिकारणं भवितुम् अर्हति.
अस्तु अस्तु, तर्हि तत्र
अत्र संयोगः वा तन्तुसंयोगः वा अथवा हस्तगतक्रिया वा, नाम तत्र वयम् एतदपि वयं गतवर्गे दृष्टवन्तः, तदपि प्रायशः लिखामः तत्र, तदपि उदाहरणं भवति. नाम तत्र हस्त अपि हस्तद्वयस्य क्रियया तयोः संयोगः भवति. हस्तौ भिन्नौ, आरम्भे हस्तौ भिन्नौ, क्रियया तत्र तयोः इदानीं संयोगः, तत्र नमस्कारसमये तयोः संयोगः भवति खलु हस्तयोः. तर्हि तत्र क्रियया संयोगः जातः खलु, हस्ते क्रिया नास्ति चेत् संयोगः न भवेत्, यतोहि आरम्भे हस्तौ पृथक्
स्तः.
इदानीं तर्हि द्वौ हस्तौ पृथक् स्तः, इदानीं तत्र क्रियया तत्र तयोः संयोगः जातः तर्हि क्रिया इति अपि संयोगः तयोः मध्ये तत्र कीदृशसम्बन्धः
तत्र संयोगः इति तु गुणः भवति
न न गुण इति मास्तु इदानीं केवलं तत्र क्रिया हस्तगत हस्ते विद्यमाना क्रिया हस्ते या क्रिया आसीत् अपि हस्ते इदानीं यः संयोगः अस्ति तत्र तयोः मध्ये कार्यकारणभावः अस्ति वा
आम् संयोगस्य कारणं तत्र हस्तगतक्रिया एव अस्ति
खलु
आम्
तर्हि समीचीनं तर्हि तत्र क्रिया हस्तगतक्रिया इति तत्र कारणम् अपि संयोगः इति कार्यं भवति तर्हि अस्मिन् उदाहरणे क्षम्यतां तत्र क्षम्यतां तत्र तर्हि अस्तु तत्र उदाहरणं सम्यक्तया लिखामः तर्हि तत्र हस्तगतक्रिया अपि हस्तसंयोगः हस्तसंयोगस्य तत्र समवायिकारणं किम् अस्ति
हस्तगत संयोगस्य समवायिकारणं तत्र समवायसम्बन्धेन यत्
तत्र संयोगः समवायसम्बन्धेन कुत्र तिष्ठति
समवायसम्बन्धेन हस्ते
हस्ते एव तिष्ठति
हस्ते एव तिष्ठति
हस्त एव समवायिकारणं तर्हि खलु हस्त तर्हि समवायिकारणमस्ति तत्र तत्र क्षम्यताम् ओ क्षम्यताम् अहम् अत्र संयोगः इति मया लेखनीयमासीत् अस्तु हस्तगत संयोगः अथवा हस्तसंयोगः अस्तु तर्हि हस्तः एव तत्र समवायिकारणमस्ति हस्तसंयोगस्य हस्तगतक्रिया अपि हस्ते अस्ति खलु
अपि हस्ते अस्ति
तर्हि संयो तत्र समानादिकरणीयम् अभवत् खलु
समानादिकरणं करणीयम् अभवत्
इदानीं तत्र केन सम्बन्धेन हस्तगतक्रिया अस्ति हस्ते
हस्तगतक्रिया हस्ते समवायसम्बन्धेन अस्ति
अतः एषः सम्बन्धः अपि समवायः एषः सम्बन्धः अपि समवायः
अपि समवायसम्बन्धः
अतः
तर्हि असमवायिकारणः भवेत् तत्र
हस्तगतक्रिया असमवायिकारणमस्ति हस्तसंयोगस्य
अस्तु महोदय
इति
यतोहि तत्र तादात्म्यसम्बन्धः एव यत्र
नास्ति
नास्ति
तर्हि हस्तगतक्रिया इति समीचीनं भगिनि
आं महोदय इत्युक्ते तत्र हस्तगतक्रिया इति कारणं आन् द अदर् सैड् भवेत्
सत्यं सत्यं
अस्तु महोदय धन्यवादः महोदय
नाम एतत् सरलमेव किन्तु वारं वारं तत्र अभ्यासः भवेत् तावदेव
तत्र
द्वित्रिवारं यदि वयं शृणुमः एतादृशं वर्णनं कुर्मः आगच्छति तत्र किन्तु एतस्य अभ्यासः आवश्यकः यतोहि तत्र अग्रे गत्वा वयम् अस्माकं मनसि आगच्छति आमामाम् एतत्तु कारणमेव अस्ति इति किन्तु तत्र सर्वदा न्यायशास्त्रे अस्तु भवान् वदति अथवा भवती वदति कारणं कार्यकारणभावः अस्ति अस्तु तर्हि अधिकरणं किं सम्बन्धः कः एतत् सर्वं वक्तव्यं तदा कुत्रचित् सम्बन्धः कः इति तत्र साक्षात् न दृश्यते तर्हि परम्परासम्बन्धः एतत् सर्वं वक्तव्यं भवति तत्र कुत्रचित् जटिलः भवति किन्तु अस्मिन् अत्र तु सरलम् इति मन्ये
अस्तु महोदय धन्यवादः
अस्तु इदानीं तर्हि अस्तु तर्हि अग्रे तत्र उषा भगिनी इदानीं तत्र पुरा पुनः तत्र आरम्भं कुर्मः तर्हि तत्र भगिनी तत्र भेदः तत्र कः इति वदति वा तत्र समवायिकारणस्थले अपि असमवायिकारणस्थले
समवायिकारणस्थले कारणम् अधिकरणे तादात्म्यसम्बन्धेन स्थित्वा कार्यं जनयति समवायिसम्बन्धेन अपि च असमवायिकारणस्थले कारणम् अधिकरणे समवायिसम्बन्धेन स्थित्वा कार्यं जनयति समवायसम्बन्धेन एव
समीचीनम् अपि तत्र द्वयोः तत्र अत्र अपि अत्रापि तत्र अधिकरणं सर्वदा किं भवति
अधिकरणं समवायिकारणमेव भवेत्
समवायिकारणमेव अत्रापि अधिकरणं समवायिकरणम् अत्र अधिकरणमपि समवायिकारणम् तर्हि तत्र कार्यम् एकमेव कार्यं तत्र अधिकरणं समवायिकरणं समवायिकरणम् अत्र समवायिकरणमेव उपरि अस्ति अत्र असमवायिकरणम् अस्ति अतः एव तत्र घटः इति कार्यं समवायि घटः इति कार्यं कपालः इति कारणं समवायि कपालसंयोगः असमवायिकरणम्
असमवायिकारणम्
इति अस्ति समीचीनं भगिनि हा तर्हि तत्र अत्र समवायसम्बन्धः एव अस्ति अत्र तादात्म्य अत्र समवायः इति अस्ति अस्तु समीचीनम् इदानीं तत्र अन्यरीत्या वदामः धन्यवादः भगिनि इदानीं
धन्यवादः
अन्यः एकः अंशः अत्र वक्तव्यः अस्ति तदनन्तरम् अग्रे करपत्रे पठामः तर्हि तत्र नीता भगिनी तत्र अत्र तादात्म्यसम्बन्धः अस्ति इति तत्र न्यायशास्त्रे तत्र अन्यरीत्या वदामः नाम तत्र सम्बन्धः तादात्म्यसम्बन्धः इति अस्ति किन्तु तत्र अन्य तत्र अवच्छेदकम् इति पदम् उपयुज्य वदामः तत्र किञ्चित् स्मरयति वा तत्र कीदृशं भवति इति
कारणं तादात्म्यसम्बन्धेन अधिकरणे
अस्ति हा किन्तु तदा वयं तत्र किं वदामः कारणम् इति अस्ति तर्हि कारणे कारणता अस्ति
कारणे कारणता अस्ति अधिकरणे अधिकरणता अस्ति
हा किन्तु कारणे कारणता अस्ति इति कृत्वा तत्र कारणतायाः अवच्छेदकः कः इत्युक्ते वयं किं वदामः
कारणे कारणता कारणतायाः अवच्छेदकसम्बन्धः
अवच्छेदकः अस्ति तादात्म्यसम्बन्धः
तादात्म्यसम्बन्धे
सः एव सम्बन्धः एव कारणतायाः
अवच्छेदकसम्बन्धः
तत्र यदि वयं वदामः समवायिकारणस्य लक्षणम् इति वदामश्चेत् तादात्म्यसम्बन्धावच्छिन्नकारणता निरूपित समवायसम्बन्धावच्छिन्न
आश्रयः
समवायसम्बन्धः इति तत्र तादृशं तत्र तादृशं भवति
प्रायः
न न मास्तु किन्तु तत्र तादात्म्य इति तत्र कारणतायाः अवच्छेदकः धर्मः समवायः अत्र कार्यतायाः अवच्छेदकः धर्मः तथा अत्र असमवायिकारणस्थले किम् अस्ति
कारणे अत्रापि कारणे कारणता अस्ति कारणतायाः अवच्छेदकसमवायसम्बन्धः इति अस्ति कारणतायाः कार्यतायाः अवच्छेदकसमवायसम्बन्धः एव अस्ति कारणं
तर्हि तत्र कार्यतायाः अवच्छेदकः अस्मिन् स्थले भेदः नास्ति
कार्यतायाः अवच्छेदकसमवायसम्बन्ध एव स्थलद्वये तथैव वर्तते
कारणतायाः तु
कारणतायाः अवच्छेदकसमवायिसम्बन्धस्य विषये तादात्म्यसम्बन्धः एव अवच्छेदकः वर्तते परन्तु असमवायिकारणे कारणतायाः अवच्छेदकसमवायः सम्बन्ध इति वर्तते
इति भवति इति भवति हा तावदेव अस्मिन् विषये कोऽपि प्रश्नः उदाहरणानि
दीर्घवाक्यं रचयामः चेत् तत्र कारणतायाः अवच्छेदकतादात्म्यसम्बन्धः तन्निरूपितकार्यं तस्याः तस्य अवच्छेदकसमवायसम्बन्धम् एवं भवति वा
इति भवति हा सत्यं भगिनि किन्तु तत्र किं भवति तत्र नाम कारण समवायिकारणस्य लक्षणं यदि वक्तुमिच्छामः तर्हि लक्ष्यं भवति कारणं खलु तर्हि नाम लक्ष्यं कारणं भवति इति कृत्वा वयं किं कुर्मः अन्तिमभागः एव कारणं भवेत् नाम तदा वाक्यं कीदृशं भवति इत्युक्ते समवायसम्बन्धावच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणतायाः आश्रयः समवायिकारणम् अथवा कारणत्वं नाम समवायसम्बन्धावच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणत्वम् एव समवायिकारणस्य लक्षणम् नाम लक्ष्यम् अस्ति लक्ष्ये किं विशिष्टम् अस्ति तर्हि कारणत्वम् इति विशिष्टम् अस्ति केवलं कारणे एव अस्ति तर्हि कीदृशं कारणत्वं नाम तादात्म्यसम्बन्धावच्छिन्नकारणत्वम् कार्यतया निरूपितकारणत्वं सा कार्यता पुनः समवायसम्बन्धावच्छिन्नकार्यता तर्हि समवायसम्बन्धावच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्नकारणत्वं कारणत्वं कुत्र वर्तते समवायिकारणे एव वर्तते अतः समवायिकारणस्य लक्षणं तद् भवेत् इति तादृशं वर्णनम् अत्र करोति वा असमवायिकारणस्थले
समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणम् असमवायिकारणे वर्तते
एव वर्तते अतः तस्य लक्षणं भवेत्
तस्य लक्षणं भवेत्
हा इति अस्ति भगिनि उत्तमं हा अस्तु तर्हि इदानीं अन्य कोऽपि प्रश्नः अस्मिन् विषये यतोहि इदानीं तत्र द्वितीयविध एतद् यत् वयम् उक्तवन्तः एतावत् एतत् सर्वम् अस्ति प्रथमविध असमवायिकारणम् इदानीं द्वितीयविध सेकेण्ड् टैप् असमवायिकारणम् अग्रे आगच्छति सेकेण्ड् टैप् तर्हि कोऽपि प्रश्नः अस्मिन् विषये नास्ति तर्हि अग्रे सरामः तर्हि तर्हि करपत्रे तत्र अस्तु तर्हि तत्र नरसिंहगे महोदय आरम्भं करोति वा यत्र इति
महोदय यत्र कार्यकारणभावः अस्ति किन्तु समानाधिकरणं साक्षात् नास्ति तत्र परम्परया वक्तव्यं भवति अन्य न कोऽपि उपायः यत्र कार्यं जायते तत्रैव कारणेन भाव्यम् अत्र कार्यम् अस्ति अन्यत्र कारणम् उत्पाद्यताम् इति तु कथमपि न भवति यत्र कार्यकारणभावः भवति किन्तु समानाधिकरणं साक्षात् नास्ति तत्र परम्परासम्बन्धेन वक्तव्यं भवति अन्य कोऽपि उपायः इत्युक्ते यदा कार्यकारणभावः अस्ति चेत् तत्र समानाधिकरणं भवेत् एव साक्षात्सम्बन्धेन वा परम्परासम्बन्धेन वा तत्र कार्यकारणभावः भवेत् समानाधिकारिण्यं भवेत् इति अस्तु अन्यथा तत्र कार्यकारणभावः अस्ति इति समानाधिकरणं नास्ति चेत् कार्यकारणभावः न भवति
तर्हि तत्र समानाधिकरण्यं तत्र सम्पादनीयं खलु तर्हि कथमपि सम्पादनीयं नाम यत्र साक्षात् अस्ति तत्र क्लेशः नास्ति किन्तु यत्र साक्षात् नास्ति तत्र किं कर्तव्यं
सम्पादनीयं
सम्पादनीयं परम्परया किन्तु परम्परा कीदृशी इति वक्तव्यं खलु नाम तत्र एकः एव सम्बन्धः न भवेत् तत्र सम्बन्धस्य परम्परा नाम एकसम्बन्धः अन्यः सम्बन्धः तादृश तत्र सोपानेन तत्र एकः सम्बन्धः अन्यः सम्बन्धः इति कृत्वा कृत्वा परम्परा इति कल्पना तत्र परम्परायाः कल्पना कृत्वा तत्र वक्तव्यं भवति अग्रे अन्यः कोऽपि उपायः महोदय इदानीं यत्र इति तत्र तस्य विवरणमपि नरसिंहजी महोदय श्रूयते वा
हा श्रूयते महोदय यत्र कार्यं जायते तत्रैव कारणेन भाव्यम् अत्र कार्यमस्ति अन्यत्र कारणम् उत्पद्यताम् इति तु कथमपि न भवति किमर्थम् इत्युक्ते कारणं कार्याधिकरणे भवेत् एतत् पूर्वमपि पठितवन्तः त्रीणि निकषः कार्याधिकरणे भवेत् सर्वदा भवेत् कार्यपत्रे पूर्वक्षणे भवेत् कारणं तत्र कार्यं जायते चेत् तत्रैव कारणेन भाव्यं तस्य अधिकरणे अधिकरणे एव कारणमपि भाव्यम् अत्र
यत्र विजयिनां तत्र कार्यं बेङ्गलूरुनगरे अस्ति चेत् तत्र कारणं तत्र मुम्बैनगरम् इति न वक्तुं नगरे अस्ति इति न वक्तुं शक्नुमः खलु नाम तत्र केनापि उपायेन तत्र परम्परा कल्पनीया अस्ति स्थापनीया अस्ति अस्तु समीचीनं धन्यवादः महोदय हा तर्हि इदानीम् अग्रे तत्र हा अग्रे तत्र हा शोभा भगिनी अत्र इदानीं तत्र
द्वितीय तथा आरभ्य
सत्यं भगिनि
द्वितीय असमवायिकारणं यथा घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणं तत्र घटस्य परिमाणं समवायसम्बन्धेन घटे कपालस्य परिमाणं समवायसम्बन्धेन कपाले घटपरिमाणकपालपरिमाणयोः एकमधिकरणम् अप्रसिद्धम् अतः कार्यस्य वा कारणस्य वा परम्परासम्बन्धः स्वीकार्यः इदानीं तत्र द्वितीयसमवायिकारण वर्णनं
प्रायशः तत्र द्वितीया असमवायिकारणवर्णनं
क्षमतां द्वितीया असमवायिकारणम् असमवायिकारणम् इति एव विषयः इदानीं
दोषः नास्ति किन्तु अत्र अस्ति
द्वितीया असमवायिकारणम् इति विषये यत् तत्र यथा घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणम्
इति वक्तुम् इच्छामः नाम तत्र कारणम् अस्ति अपि कीदृशं कारणं नाम असमवायिकारणम् अस्ति इति वक्तुम् इच्छामः तत्र घटपरिमाणम् इति अस्ति तस्य समवायिकारणं किम् अस्ति घटपरिमाणस्य
समवायिकारणं घटः एव भवति
घटः एव अस्ति समीचीनं तर्हि घटः एव समवायिकारणम् इदानीं तत्र कपालपरिमाणं कारणमस्ति वा घटं परिमाणं प्रति
अस्ति किन्तु
तत्र कारणमस्ति
यतोहि कपाल परिमाणं समवायसम्बन्धेन कपाले तिष्ठति तत्र
न किन्तु कारणत्वं कार्यकारणभावः तु अस्ति खलु तयोः मध्ये
अस्ति यतोहि कपाल कपालं विना घटं न भवति, घटं विना परिमाणं न भवति, तादृशं
कपालपरिमाणं विना घटपरिमाणं न भवति
न भवति
नाम अपि कपालपरिमाणं बृहत् अस्ति चेत् घटपरिमाणमपि बृहत्
भवति
अतः तत्र सम्बन्धः तु वर्तते इदानीं किन्तु सम्बन्धः तर्हि कार्यकरणभावः अस्ति इति अनुभवः
अनुभविक विषयः
विषयः अस्ति इदानीं किन्तु तत्र समस्या का इति इदानीम् अग्रे घटस्य
घटस्य परिमाणं समवायसम्बन्धेन घटे तत्र घटस्य परिमाणं समवायसम्बन्धेन घटे वर्तते कपालस्य परिमाणं समवायसम्बन्धेन कपाले वर्तते तत्र द्वयोः घटस्य अपि च कपालस्य सम्बन्धः घटस्य परिमाणं समवायसम्बन्धेन घटे भवति कपालस्य अपि समवायसम्बन्धेन एव घटस् कपालस्य परिमाणमपि कपाले भवति
इति जानीमः इदानीं
घटपरिमाणकपालपरिमाणयोः एकम् अधिकरणम् अप्रसिद्धम् इदानीं तत्र घटपरिमाणम् अपि च कपालपरिमाणयोः एकमेव अधिकरणम् अप्रसिद्धम् इति अप्रसिद्धम् इत्युक्ते तत्र
नास्ति इति द्रष्टुं शक्नुमः नाम एतस्य अधिकरणं घटः घटपरिमाणस्य अधिकरणं घटः कपालपरिमाणस्य अधिकरणं कपालः घटः कपालः भेदः खलु तयोः मध्ये
समानाधिकरणं नास्ति
नाम घटः भिन्नः कपालः भिन्नः
भिन्नः
तर्हि एतयोः समानाधिकरणं
नास्ति
साक्षात् न द्रष्टुं शक्नुमः वर्तते इति चिन्तयामः किन्तु ओ अस्तु अस्तु सरलरीत्या जानीमः इति न वक्तुं शक्नुमः अतः
अतः कार्यस्य वा कारणस्य वा परम्परासम्बन्धः स्वीकार्यः तत्र कार्यस्य वा इत्युक्ते तत्र घटः एव कार्यं घटपरिमाणं क्षम्यतां तत्र घटपरिमाणमेव कार्यम् अपि च कारणं भवति तत्र कपालपरिमाणम् अतः तयोः कार्यस्य वा कारणस्य वा परम्परासम्बन्धः स्वीकार्यः
नाम तत्र एतस्य अधिकरणं किमस्ति तत्र कार्यस्य वा कारणस्य वा इति उक्तं तर्हि तत्र कार्यस्य अधिकरणं किम् अस्ति
घटः
घटः यदि एतत् कारणम् इति वक्तुम् इच्छामः तर्हि सामानाधिकरण्यं भवेत् खलु
सत्यं घटपरिमाणम्
अपि कपालपरिमाणं तयोः
द्वयोः सामानाधिकरणं भवेत्
एतस्य अधिकरणं घटपरिमाणस्य अधिकरणं घटः तर्हि सामानाधिकरण्यम् अस्ति इति वक्तुम् इच्छामश्चेत् तत्र कपालपरिमाणम् इति कारणं केनापि सम्बन्धेन कुत्र भवेत्
घटे एव भवेत्
घटे एव भवेत् तर्हि अत्र परम्परासम्बन्धेन कपालपरिमाणं घटे भवति इति वक्तव्यं भवति किन्तु कथं तद् भवति इति वक्तव्यं तत्र केवलं तत्र रेखा इति न कथम् इति तत्र वक्तव्यं स्वीकार्यः तत्र परम्परासम्बन्धः स्वीकार्यः भवति एषः प्रथमविधः नाम कार्यस्य अधिकरणे कारणस्य परम्परासम्बन्धेन कल्पना नाम कारणं परम्परासम्बन्धेन कार्यस्य अधिकरणे भवति इति अन्यः विधः अस्ति कारणस्य वा परम्परासम्बन्धः स्वीकार्यः क्षम्यताम् अहं कारणस्य इति परम्परासम्बन्धः इति उक्तवान् इदानीं कार्यस्य परम्परासम्बन्धः स्वीकुर्मः तर्हि कारणं कपालपरिमाणमस्ति तस्य अधिकरणं किम् अस्ति
कपालपरिमाणस्य अधिकरणं कपालः
इदानीं
घटपरिमाणं तत्र कार्यमिति घटपरिमाणं तत्तु तस्य अधिकरणं घटः भवति
किन्तु इदानीं सामानाधिकरणम् इति चिन्तयामश्चेत् एकविधा अस्ति घटपरिमाणं यदि कपाले अस्ति चेत्
सामानाधिकरणं भवति
अतः तत्र मार्गद्वयः द्वयं भवति एकमस्ति घटः इति अधिकरणम् इति स्वीकृत्य कपालपरिमाणं
घटे भवेत्
घटे अस्ति इति वक्तव्यम् अथवा कपालः एव अधिकरणम् इति स्वीकृत्य
घटपरिमाणं कपाले भवेत् इति
हा केन सम्बन्धेन कपाले भवति इति वक्तव्यं भवति अतः हा मार्गद्वयमस्ति मार्गद्वयस्य अपि विवरणम् अग्रे भवति इति अस्ति तर्हि तत्र समस्या का अपि किं कर्तव्यम् इति सर्वे ज्ञातवन्तः खलु एतावत् तर्हि तत्र शुभदा भगिनी नमस्कारः समस्या का इति वदति वा भगिनी अत्र शुभदा भगिनी अस्तु तर्हि तत्र हा चन्द्रमती भगिनी अत्र समस्या
कपालपरिमाणं कपाले अस्ति खडपरिमाणं खडे खडः कपाले किन्तु कपालपरिमाणं खडे अधिकरणम् अस्ति खडे अस्ति इति वयं वक्तुम् आवश्यकता अस्ति कद् तद् कथम् इति एवं वयम् इदानीं पश्यामः
नाम एतत् कार्यम् इति चिन्तयामः एतत् कारणम् इति चिन्तयामः किन्तु अधिकरणं किम् इति न जानीमः यतोहि एतत् हा अतः
खडः इति कार्यं कपालपरिमाणम् इति कारणं तत्
न न घटः इति कारणम्
अधिकरणं
घटपरिमाणमिति कार्यं घटपरिमाणमिति कार्यं कपालपरिमाणं क्षम्यतां घटपरिमाणमिति कार्यं कपालपरिमाणमिति कारणम् अस्य अधिकरणं घटपरिमाणस्य अधिकरणं घटः
खडः एव किन्तु
तर्हि कपालपरिमाणं
कपाले
हा अतः कपालपरिमाणं केन सम्बन्धेन घटे अस्ति इति वक्तव्यम् अथवा घटपरिमाणं केन सम्बन्धेन कपाले अस्ति इति वक्तव्यं यदि एकं कुर्मः तदा सामानाधिकरण्यम् आगच्छति अस्तु समीचीनम् अस्तु इदानीम् अग्रे अस्तु अग्रे तत्र योगेन्द्रमहोदय पठेत् चिन्तयामि धन्यवादः अस्तु अग्रे योगेन्द्रमहोदय
इमां कपालः कार्यकारणयोः अधिकरणम् यदि स्वीकुर्मः अस्यां दशायां घटपरिमाणस्य साक्षात् सम्बन्धः अधिकरणे नास्ति अतः घटपरिमाणस्य परम्परासम्बन्धः वक्तव्यः कपाले स्वम् इति घटपरिमाणं स्वशब्दः कुत्र प्रयोक्तव्यः यत्र साक्षात् सम्बन्धः नास्ति यत्र परम्परया एव सम्बन्धः शक्यः तत्र स्वशब्दस्य आवश्यकता भवति स्वस्य साक्षात् अधिकरणं घटः केन सम्बन्धेन समवायसम्बन्धेन अतः घटपरिमाणस्य समवायिघटः महोदय एतत् वयं पूर्वं न पठितवन्तः यतोहि शीतस्पर्शः घटे नास्ति परन्तु जलं तु घटे अस्ति अतः परम्परया शीतस्पर्शः घटे अस्ति
सत्यं महोदय तथैव अस्ति महोदय तथैव अस्ति उत्तमं हा तथैव अस्ति महोदय उत्तमम् उत्तमं तर्हि सौकर्याय एतत् करपत्रम् अस्ति किन्तु विषयः परम्परा इति पूर्वमेव अस्माभिः पठितम् एव सत्यं महोदय
प्रथमकार्यकारणयोः अधिकरणमिति स्वीकुर्मः कार्यकारणयोः अधिकरणं
तत्र तत्र विकल्पद्वयं वर्तते नाम अधिकरणं किं भवेत्
कपालः
कपालः भवेत् अथवा घटः भवेत् खलु कार्यस्य अधिकरणे कारणमस्ति इति वक्तुं शक्नुमश्चेत् सः एकः मार्गः अथवा कारणस्य अधिकरणे कार्यम् अस्ति इति यदि वदामश्चेत् तदपि एकः मार्गः तर्हि विकल्पद्वयं टु चाय्सेस् तर्हि घटः अपि अधिकरणं भवितुम् अर्हति कपालः अपि
अधिकरणं भवितुम् अर्हति परिमाणस्य
हा नाम द्वयोः द्वयोः एतावत्
द्वयोः परिमाणयोः
हा एतावत् कपालः केवलं
कपालः अधिकरणं भवति
हा किन्तु एतदपि अत्र अस्ति इति यदि वक्तुं शक्नुमः तर्हि समानाधिकरणम् आगतम् अतः इदानीं प्रथमतः कपालः एव अधिकरणम् इति चिन्तयामः तर्हि तदा किं भवति
अस्यां दशायां घट घटपरिमाणस्य साक्षात् सम्बन्धः अधिकरणेन अस्ति घटपरिमाणः यः उपरितने भागे अस्ति सः साक्षात्तया कपाल इति अधिकरणेन तिष्ठति अतः घटपरिमाणस्य परम्परासम्बन्धः अतः घटस्य उपरि यः घटपरिमाणम् अस्ति सः परम्परासम्बन्धेन कपाले तिष्ठति
इति वक्तव्यम् इति वक्तव्यं तर्हि समीचीनं
इति वक्तव्यः आम् स्वम् इति घटपरिमाणम् उपरितने भागे अस्ति सः स्वशब्दः कुत्र प्रयोक्तव्यः यत्र परम्परा अस्ति तत्र स्वशब्दस्य प्रयोगः भवति प्रायः इति लिखितमस्ति अग्रे अपि यत्र साक्षात् सम्बन्धः
तदेव तदेव वयं दृष्टवन्तः खलु तत्र स्वस्वं वायि स्वस्वमेव समवेतम् एतत् सर्वं यत्र परम्परासम्बन्धः नाम सम्बन्धद्वयम् आसीत् तत्रैव
सोपानेन सम्बन्धः इति लिखितमस्ति तत्र
हा समीचीनं महोदय
यत्र परम्परया सम्बन्धः एव सम्बन्धः शक्यः तत्र स्वशब्दस्य आवश्यकता भवति स्वस्य साक्षात् अधिकरणं
नाम यत्र परम्परया एव सम्बन्धः शक्यः नाम साक्षात् सम्बन्धः नास्ति परम्परया एव सम्बन्धः अस्ति इति वक्तुं शक्नुमः तत्र एव स्वशब्दस्य आवश्यकता
भवति
अग्रे
स्वस्य साक्षात् अधिकरणं घटः
स्वस्य इत्युक्ते कस्य अत्र
परिमाण घटपरिमाणस्य साक्षात् अधिकरणं घटः
घटपरिमाणस्य साक्षात् अधिकरणं घटः
घटः केन सः केन सम्बन्धेन समवायसम्बन्धेन सम्बन्धेन घटे तिष्ठति अतः घटपरिमाणस्य समवायी घटः
अतः समवायी घटपरिमाणस्य समवायी घटः इत्युक्ते घटपरिमाणं समवायसम्बन्धेन घटे अस्ति
तिष्ठति घटे अस्ति अपि च घटपरिमाणः
इदानीं प्रश्नः तत्र महोदय इदानीं प्रश्नः तत्र पटस्य समवायी कः
पटस्य समवायी पटस्य समय पटपरिमाणं
नाम समवायी इत्युक्ते कः इति पुनः एकवारं वदतु नाम घटपरिमाणस्य समवायी घटः अर्थः कः
घटपरिमाणस्य समवायी घटः अतः पटपरिमाणस्य समवायी पटः
न न किन्तु मम प्रश्नः आसीत् पटस्य समवायी कः इति
पटस्य समवायी तन्तु
येन
तिष्ठति
उत्तमं
समवायसम्बन्धेन तिष्ठति
अतः तन्तुः एव समवायी पटस्य समवायी तन्तुः इति भवति. उत्तमं महोदय, हा समीचीनं. हा तर्हि अग्रे इदानीं तत्र धन्यवादः महोदय. शुभदा भगिनी, इदानीं तत्र पूर्वं न श्रुतं, तत्र इदानीं श्रूयते इति चिन्तयामि भगिनि. हा समीचीनं भगिनि. हा इदानीं तत्र भगिनी भवती केवलं पठतु, यदि न वक्तुं शक्नोति, विवरणं न कर्तुं शक्नोति चिन्ता मास्तु, किन्तु पठतु, अन्य कोऽपि तत्र विवरणं ददाति.
आं महोदय, प्रयत्नं करोमि.
अस्तु भगिनि, हा तर्हि इदानीं समवायि.
समवायि, समवायसम्बन्धः द्वयोर्मध्ये भवति चेत् आश्रितः, एकः आश्रितः भवति, अन्यः आश्रयः भवति. परिमाणं घटे इति स्वीकरोतु. समवायसम्बन्धेन परिमाणं घटे, आश्रयः घटः, आश्रितं परिमाणम्. अत्र परिमाणसमवायी भवति घटः इत्युक्ते समवायसम्बन्धेन तत् परिमाणम् अस्मिन् घटे अस्ति.
तावत्पर्यन्तं
समवायसम्बन्धेन यस्मिन् अस्ति सः समवायी. नकारान्तशब्दः इनि प्रत्ययः. समवायः अस्मिन् अस्ति इति समवायी इति व्युत्पत्तिः. परिमाणसमवायः घटे अस्ति, परिमाणसमवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति. पुनः एकवारं पठामि. परिमाणसमवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति. अत्र परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः, परिमाणस्य समवायः घटे इति.
तर्हि केवलं भगिनि तत्र परिमाणं घटः समवायः तावदेव अस्ति, किन्तु तस्य विवरणं पश्यतु. अस्तु,
वदामि वा?
वदतु भगिनि.
समवायी नाम किम् इति अत्र विवृतमस्ति. समवायसम्बन्धः द्वयोर्मध्ये यदा भवति तदा तयोः एकः आश्रितः भवति, अन्यः आश्रयः इति भवति. परन्तु कः आश्रितः, कः आश्रयः इति चेत् उदाहरणं स्वीकृत्य वयं वदामः चेत् परिमाणं घटे इति स्वीकरोतु. तत्र परिमाणम् इति गुणः, घटः इति द्रव्यं, तर्हि परिमाणं घटे अस्ति इति वदामः चेत् परिमाणं घटे समवायसम्बन्धेन वर्तते इति तु वयं जानीमः. यतोहि गुणद्रव्ययोः मध्ये समवायसम्बन्धः अस्ति. यदा भवान् लिखन् अस्ति तर्हि आश्रयः, अधुना परिमाणं घटे इति स्वीकृतं चेत् अत्र आश्रयः घटः भवति, आश्रितं परिमाणं भवति. परिमाणं घटे इति अस्ति, घटः इति अधिकरणमपि भवति. अधिकरणस्य इति मम चिन्तनं, महोदय न जाने सम्यक् वा इति,
परन्तु
अधिकरणम् इति आश्रयः इति अपि वक्तुं शक्यते. अधिकरणमिति आश्रयः एव. तर्हि परिमाणं घटे वर्तते नाम परिमाणस्य अधिकरणं घटे अस्ति. अतः अधिकरणं साक्षात् घटः अस्ति, अतः आश्रयः घटः अस्ति इति वक्तुं शक्यते. तर्हि अन्यत् आश्रितं किम् इति चेत् परिमाणम् आश्रितम् इति भवति. अधुना अत्र परिमाणसमवायी भवति घटः इति. अधुना समवायी इत्यस्य व्युत्पत्तिः कथं भवति इति दत्तमस्ति. समवायसम्बन्धेन तत् परिमाणम् अस्मिन् घटे अस्ति नाम गुणद्रव्ययोः मध्ये समवायसम्बन्धः अस्ति एव. तर्हि परिमाणं घटे समवायसम्बन्धेन अस्ति, यतोहि परिमाणम् इति गुणः, अपि च घटः इति द्रव्यं. तर्हि परिमाणं घटे समवायसम्बन्धेन वर्तते. अत्र समवायसम्बन्धेन यस्मिन् अस्ति इति सः समवायी. अत्र घटे अस्ति इति कृत्वा घटः इति समवायी भवति. अधुना समवायिन् इति नकारान्तशब्दस्य व्युत्पत्तिः तत्र दत्तमस्ति. अस्य अस्ति, अस्मिन् अस्ति इति अर्थे इनि प्रत्ययः भवति. अतः इनि प्रत्ययः कृत्वा समवायः अस्मिन् अस्ति इति अर्थे समवायिन् इति भवति. तस्य प्रथमाविभक्ति एकवचने समवायी इति भवति. अतः घटः इति पुल्लिङ्गे अस्ति इति कृत्वा तस्य विशेषणं समवायी इति पुल्लिङ्गे प्रथम एकवचने समवायी इति भवति. अतः समवायी घटः इति वक्तुं शक्यते. अधुना परिमाणसमवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति. समवायी इति घटः अस्ति इति वयं दृष्टवन्तः. अधुना परिमाणसमवायः घटे अस्ति. तत्र समवायः इत्युक्ते किम् इति चेत् समवायसम्बन्धेन परिमाणम् इति गुणः घटे इति द्रव्ये अस्ति. अतः परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः इति तस्य समासविग्रहः इति वक्तुं शक्यते इति मन्ये. परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः इति षष्ठी तत्पुरुष इति वाक्येन वक्तुं शक्यते. अतः परिमाणस्य समवायः परिमाणरूपी समवायः समवायी घटे समवायिनि घटे अस्ति इति वक्तुं शक्यते. तर्हि
उत्तमं भगिनि, सम्यक् रीत्या विवरणं दत्तं. धन्यवादः भगिनि. समीचीनं. तर्हि कोऽपि प्रश्नः अत्र नाम समवायी घटपरिमाणस्य समवायी घटः इति तस्य विवरणं कृतम् इति एतावत्. तर्हि घटपरिमाणस्य समवायी घटः इति भवति. अस्तु, समीचीनम्. इदानीम् अग्रे तत्र उषा भगिनी अग्रे पठितुम् इच्छति वा?
महोदय, तर्हि घटपरिमाणस्य समवायी घटः, घटपरिमाणस्य समवायी घटः, घटः पुनः कुत्र अस्ति इति चेत् कपाले. केन सम्बन्धेन? समवायसम्बन्धेन. अतः घटस्य समवायी कपालः. अनेन स्वसमवायी घटः, घटसमवायी कपालः. आहत्य स्वसमवायी कपालः. पुनरेकवारं पठामि. तर्हि घटपरिमाणस्य समवायी घटः. ओके, घटपरिमाणस्य समवायी घटः. घटः पुनः कुत्र अस्ति इति चेत् कपाले. ओके, केन सम्बन्धेन कपाले अस्ति? समवायसम्बन्धेन. अतः घटस्य समवायी कपालः. ओके, अनेन स्वसमवायी घटः, घटसमवायी कपालः. आहत्य स्वसमवायी समवायी कपालः. सो ट्वैस् इट् कम्स् डौन्. ओके, स्वसमवायी समवायित्वं कपाले, घटपरिमाणं स्वसमवायी समवायित्वसम्बन्धेन कपाले इति परम्परासम्बन्धः. अपि च कपालपरिमाणं कुत्र अस्ति? साक्षात् कपाले. केन सम्बन्धेन? समवायसम्बन्धेन. अतः स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं प्रति स्वसमवायसम्बन्धेन कपालपरिमाणं कारणम् इत्येव कार्यकारणभावः सिद्धः. प्रयत्नं करोमि महोदय. तर्हि घटपरिमाणस्य समवायी घटः. पूर्वं वयं दृष्टवन्तः समवायसम्बन्धेन यस्मिन् अस्ति सः समवायी इति. अत्र परिमाणस्य समवायः घटे अस्ति इति पूर्वं. तर्हि घटपरिमाणस्य समवायी घटः. घटपरिमाणम् इति घटपरिमाणस्य समवायी.
घटपरिमाणस्य समवायी घटः इत्युक्ते घटपरिमाणं समवायसम्बन्धेन
घटे
वर्तते इति एव खलु?
आम् आं महोदय. घटः पुनः कुत्र अस्ति इति चेत् कपाले घटः घट केन सम्बन्धेन समवायसम्बन्धेन कपाले समवायसम्बन्धेन घटः उत्पद्यते घटः अस्ति अतः घटस्य समवायी कपालः घटस्य समवायी कपालः इत्युक्ते घटसमवायी घटसमवायी कपाले अस्ति इति
न न घटः घटसमवायी कपालः एव
घटस्य समवायी कपालः आम् घटस्य समवायी कपालः इत्युक्ते समवायत् समवायसम्बन्धेन
घटः घटः समवायसम्बन्धेन
कपाले वर्तते इत्यनेन
इति एव
इति आम् आम् आम्
समवायी
कपालः कपालः
घटः समवायसम्बन्धेन कपाले वर्तते
वर्तते
अस्तु
अनेन अनेन स्वसमवायि घटः सो अनेन स्वसमवायि घटः घटसमवायि कपालः आम् स्वसमवायि इति अत्र घटपरिमाणम् इति कृते वा
पूर्वं सत्यं भगिनि नाम अत्र स्वम् इत्युक्ते घटपरिमाणं
घटपरिमाणम्
इति एव तत्र अस्मिन् अस्यां चर्चायां स्वम् इत्युक्ते घटपरिमाणम् तर्हि स्वसमवायि इत्युक्ते घटपरिमाणसमवायि
घटपरिमाण समवायि घटः
घटः घटः अग्रे
घटसमवायि कपालः अस्तु घटसमवायि कपालः आहत्य स्वसमवायि समवायी कपालः सो घटपरिमाणस्य घटपरिमाणस्य समवायि समवायी कपालः समवायी इत्युक्ते लैक् लग्निनि इत्यनेन लैक् प्रथमाविभक्ति एकवचनम् इत्यनेन समवायी कपालः इत्युक्ते स्वसमवायि इति घटः सूचयति देन् घटस्य समवायी इत्यनेन कपालः सूचयति सो आहत्य स्वसमवायि समवायी इति कपालः
इति भवति अस्तु समीचीनं भगिनि तर्हि स्वसमवायि समवायि कपालः अस्तु
स्वसमवायि समवायित्वं कपाले आम् स्व घटपरिमाणस्य समवायिकारणं घटः घटस्य समवायिकारणं कपालः इत्यनेन स्वसमवायि समवायित्वं कपाले घटपरिमाणं स्वसमवायिसम्बन्धेन स्वसमवायित्वसम्बन्धेन कपाले घटपरिमाणं स्वसमवायिसमवायित्व तस्य धर्म इति
समवायि नाम भगिनि तत्र नाम तत्र तत्र स्वसमवायित्वम् इति
भावः
कपाले अस्ति
अतः
सः भावः एव अत्र सम्बन्धरूपेण स्वीकृतम् अस्ति यत्र वयम् उक्तवन्तः नाम समवायसम्बन्धेन अस्ति इत्युक्ते समवायि समवायित्वेन वर्तते इत्युक्ते समवायसम्बन्धेन वर्तते तथैव अत्र वयं किं कुर्मः तत्र सम्बन्धः कल्पयामः तत्र स्वसमवायित्वसम्बन्धेन
कपाले
कपाले घटपरिमाणम् अस्ति
आम्
समवायसम्बन्धेन घटे अस्ति परिमाणे घटः पुनः
समवायेन
अतः तत्र वयं स्वसमवायि समवायित्वसम्बन्धेन
कपाले वर्तते
वर्तते इति इति चिन्तयामः तत्र यथा तत्र योगेन्द्रमहोदय पूर्वं
शीतस्पर्श जलम् घटः आम् आम् महोदय
तथा एव अत्रापि वयं तत्र परम्परया अस्ति इति वयं तत्र वदामः तावदेव अस्तु समीचीनं तर्हि अग्रे
अपि च कपालपरिमाणं कुत्र अस्ति साक्षात् कपाले कपालपरिमाणं कपाले एव अस्ति केन सम्बन्धेन समवायसम्बन्धेन अतः स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् कपालपरिमाणं कपाले अस्ति केन सम्बन्धेन समवायसम्बन्धेन अतः स्वसमवायि समवायित्वसम्बन्धेन स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवाय घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् ओके
तत्र अन्या रीत्या यदि वदामः कपालपरिमाणम्
अपि च घटः
न घटपरिमाणं नाम कपालपरिमाणं समवायसम्बन्धेन कपाले स्थित्वा
कपालपरिमाणं समवायसम्बन्धेन कपाले स्थित्वा स्वसमवायित्वसम्बन्धेन घटपरिमाणं
जनयति
घटपरिमाणं जनयति
जनयति इति कार्यं जनयति इति तदेव तत्र अन्यरीत्या उक्तं तावदेव नाम कार्यं प्रथमतया उक्तं तदनन्तरं कारणम् उक्तम् साधारणतया वयम् एतत् कारणं प्रथमतया उक्त्वा कारणं समवायसम्बन्धेन स्थित्वा कार्यं जनयति इति वदामः अथवा कार्यं प्रति एतत् कारणम् अस्ति इति अपि वक्तुं शक्नुमः तावदेव समीचीनं भगिनि धन्यवादः
धन्यवादः महोदय
सत्यं सत्यं भगिनि सत्यं नाम एकया रीत्या एव सर्वदा वदामश्चेत् सुलभतया अस्माकं मनसि तिष्ठति तत्र तत्र यथा आरम्भे तत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटं समयसम्बन्धेन जनयति तादृश तद्वाक्यं यदि मनसि स्थापयामः अन्यत्र सर्वत्र तथा एव यदि वदामः सुलभः भवति अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र धन्यवादः भगिनि अग्रे तत्र एतावत् चन्द्रमति भगिनि अग्रे पठति वा चन्द्रमति भगिनि भगिनि अस्ति वा ओ अस्तु अस्तु तदा अस्तु तस्मिन् समये प्रायशः तत्र अन्य कोऽपि पठेत् तर्हि तत्र तत्र अस्तु तर्हि तत्र नीता भगिनी अग्रे पठति वा ध्येयम् इत्युक्ते
ध्येयं यत् स्वसमवायि अपि च स्वाश्रयः इत्यर्थ इत्यत्र समानार्थकशब्दौ अतः स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्यपि समीचीनम् समवायि आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोपि सामान्यं समवायि इतोपि विशिष्टं तावान् एव भेदः किन्तु अत्र द्वयोः उपयोगः शक्यः स्वाश्रयः स्वसमवायि अत्र स्वसमवायि शब्दस्य विषये वयं पठितवन्तः अत्र उक्तमस्ति स्वसमवायि स्वाश्रयः द्वौ शब्दौ समानार्थकशब्दौ इति उक्तमस्ति अत्र अतः स्वाश्रयसमवायित्वसम्बन्धेन यत्र वयं स्वसमवायित्वसम्बन्ध इति पठितवन्तः तत्र स्वाश्रयशब्दस्य योजनेन स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति अपि समीचीनम् पूर्ववारं वयं दृष्टवन्तः स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं यत् घटपरिमाणं समवायिसम्बन्धेन घटः अनन्तरं घटः समवायसम्बन्धेन कपालः इत्युक्ते स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं वर्तते इति वयं दृष्टवन्तः तत्र स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणं तत्र घटपरिमाणम् इति कार्यमस्ति तत् घटपरिमाणं स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं तत् कार्यं प्रति समवायसम्बन्धेन कपालपरिमाणम् इति कारणम् इति कपालपरिमाणम् इति कारणमस्ति कपालपरिमाणं समवायसम्बन्धेन कपाले वर्तते तत् वयं वक्तुं शक्नुमः अत्र स्वसमवायि इति स्थाने स्वाश्रयसम्बन्धस्य योजनं कृत्वा स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति कपालपरिमाणं कारणं परन्तु तत् कपालपरिमाणं समवायसम्बन्धेन कपालपरिमाणं कारणम् इति वयं वक्तुं
शक्नुमः
अनन्तरं समवायि आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोपि सामान्यं समवायि इति विशिष्टं तत्र समवायि आश्रयः द्वयोः मध्ये कः भेदः तद् दत्तमस्ति आश्रयशब्दः सामान्यं शब्दः समवायि इति समवायि इतोपि विशिष्टम् इति इतोपि शब्दस्य अत्र किं प्रयोजनं
नाम तत्र यदि वयम् एतत् स्वीकुर्मः नाम तत्र लेखनी उत्पीठिकायाम् अस्ति तर्हि उत्पीठिका आश्रयः भवति खलु लेखन्याः किन्तु तत्र सम्बन्धः कः
उत्पीठिकायां यदि लेखनी तत् संयोगसम्बन्धः
संयोगः तर्हि समवायसम्बन्धः नास्ति खलु तर्हि तत्र उत्पीठिका लेखन्याः समवायी इति न वक्तुं शक्नुमः
न
किन्तु आश्रयः एव
आम्
तर्हि आश्रयः आश्रयस्य क्षेत्रं बृहत् अस्ति बहुत्र आश्रय इति शब्दस्य प्रयोगः भवितुम् अर्हति किन्तु सर्वत्र तत्र सर्वत्र समवायि इति प्रयोगः न भवति तावदेव यत्र समवायि इति वदामः तत्र तु आश्रयः इति वक्तुं शक्नुमः किन्तु यत्र आश्रय इति वक्तुं शक्नुमः तत्र समवायि इति न न वक्तुं शक्नुमः
इत्युक्ते
इति एव
सामान्य इत्युक्ते यत्र बृहत् क्षेत्रं सम्भवति तत्
सत्यं तावदेव
ब्रोड्वे इति
नाम यत्र तत्र विशेषणं विना इत्युक्ते सामान्यम्
तावान् एव भेदः किन्तु अत्र द्वयोः उपयोगः शक्यः स्वाश्रयः स्वसमवायि अत्र द्वयोः समवायि वा स्वसमवायि वा आश्रयः द्वयोः शब्दस्य योजना सम्भवति इति दत्तमस्ति अत्र द्वयोः उपयोगः कर्तुं शक्नुमः इति
नाम स्वाश्रय स्वाश्रयसमवायित्वसम्बन्धेन अथवा स्वसमवायिसमवायित्वसम्बन्धेन द्वयमपि साधु द्वयमपि कर्तुं शक्नुमः इति अस्ति समीचीनं हा अस्तु अतः तत्र इदानीं वयं जानीमः तत्र कपालपरिमाणं घटपरिमाणस्य असमवायीकारणम् अस्ति किन्तु कारणम् अस्ति इति जानीमः यतोहि इदानीं तत्र सामानादिकरण्यं स्थापितमस्ति वयं जानीमः कपालपरिमाणस्य अधिकरणे कपाले घटपरिमाणमपि परम्परया सम्बन्धेन वर्तते इति अपि घटपरिमाणस्य समवायिकरणं घटः अस्ति अपि कपालसंयोगः घटपरिमाणस्य तत्र क्षम्यतां हा अपि घटे घटपरिमाणस्य कारणं कपालपरिमाणमस्ति किन्तु कपालपरिमाणं कीदृशं कारणम् इत्युक्ते समवायिकारणं तु नास्ति अतः असमवायिकारणं भवेत् अत्र असमवायिकारणम् अस्ति किन्तु तत्र असमवायिकारणं यथा पूर्वं दृष्टवन्तः तथैव नास्ति यतोहि प्रथमविध असमवायिकारणे किम् अस्ति समवायसम्बन्धः समवायसम्बन्धः खलु कार्यस्य अपि कारणस्य अधिकरणे सम्बन्धः समवायः आसीत् खलु भगिनि नीता भगिनि हा किन्तु इदानीम् अत्र सम्बन्धः समवायः अत्र परम्परासम्बन्धः न तु समवायः अतः प्रथमविध असमवायिकारणं नास्ति एतत् नूतनविध
परम्परयाः स्थापितं सम्बन्धः
अतः नूतनविध असमवायिकारणमस्ति एतदेव द्वितीयविध असमवायिकारणम् इति भवति अस्तु समीचीनमस्ति चन्द्रमती भगिनी नमस्कारः तत्र इदानीं समयः जातः किन्तु अग्रिमे वर्गे भवती पठतु चिन्ता मास्तु तत् भवति एव अग्रिमे वर्गे निश्चयेन पठतु भवती आरम्भे न भवती एव आरम्भं करोतु अस्तु अस्तु धन्यवादः सर्वेभ्यो नमः अग्रिमे वर्गे मिलामः तर्हि धन्यवादः नमस्कारः
धन्यवादः
धन्यवादः
धन्यवादः महोदय